सुन्तस्तविष्य मम वाचनिमानन्तसुप्तां सञ्जीवयत्यखिलशक्तिधरस्वहाम्ना अन्यांश्च हस्तकरणश्च वनप्रभवीं बाणानां नमो भगवते पुरुषाय सूक्ष्म दैवतहरिवचन्त्यः सर्वदेवयुतवन्द्यः परमगुरुरधिष्ठावाक्यदत्तज्ञानानां निखिलगणगणाग्नो नित्यनिर्मुक्तदोषः सरसुतनयनोऽसौ श्रीपतिर्मनसूनः यस्माद्ब्रह्मेन्द्रविद्रादिदुगतानां प्रियोऽपि च ज्ञानस्तुप्तिः सदा तस्मै हरये गुरवे नमः व्यासाय भवनाशाय श्रीशाय गुणराशिजे हृद्याय सिद्धविद्याय मध्याय च नमो नमः लसतु श्रीमदानन्दतीर्थेन्दुर्मोहृदम्बरे यद्वतश्चन्द्रिका स्वरन्तसन्तापम् निमिकृन्तति वाणित्रे सर्वाण्यम्ब चरणो हृदि सर्वदा मद्वाक्यहरनिर्भूयात् श्रीमदाचार्यभावदा हराय भजतानिष्टहराय प्रवैरिणे भवाय भवते भूयात् शिवाय सदसा नमः मे सद्यात्सुरावोहमीरे चेतोऽभिमानिनः यूयम् सर्वे प्रकृता मनोरमे मध्वभागवम् श्रीमध्वः कल्पवृक्षस्तु दयार्यः तामसच्छ्रुतः चिन्तामणिस्तु आचार्यः मुनित्रयमुदाहृतम् वादिराजगुरून् वन्दे प्रभुत्तमगुरून् तथा राघवेन्द्रान् तथा सर्वान् सद्गुरून् प्रणतस्मिः श्रीगुरुभ्यो नमः हरिः नारायणाय परिपूर्णगुणागणवाय विश्वोदयस्थितिलयोर्नियतिप्रदाय ज्ञानप्रदाय विभुखासुरसौख्यदुःखसत्कारणाय वितताय नमो नमस्ते नारायणम् प्रगुरुम् प्रगदेकनाथम् भक्तप्रियम् सकललोकनमस्कृतम् च त्रिगुरुम् प्रवर्जितमतम् विहुमाद्यमीशम् वन्देर्भवघ्नमवरासुरसिद्धवन्द्यम् धर्मक्षेत्रे कुरुक्षेत्रे समवेतादिवत्सवः मामताः पाण्डवाश्चैव किम कुर्वत सञ्जया देवम् नारायणम् मत्वा सर्वदोषविवर्तितम् परिपूर्णम् गुरुम् स्यामकृतार्थम् वक्षामि वेशकः गुणगणमुलयम् पतिन्द्रमायाः जगदघदहम् च वासवी सुरमम् मुनिकुलतिलकम् च पूर्वमबोधम् गुरुमपि परमम् गुरुम् च मे वन्दे लक्ष्मीनारायणम् नत्वा गुरुमबोधान् गुरूनपि गुरुमश्रीकृष्णगीतायाः भाष्याद्युक्तार्थसङ्ग्रहम् परमपवित्रवदा